अथ द्वादशस्तोत्रे तृतीयोऽध्यायः कुरु भुङ्क्ष्व च कर्म निजं नियतम् हरिपाद विनम्र धिया सततम् हरिरेव परो हरिरेव गुरुः हरिरेव जगत्पितृमातृगतिः न ततोऽस्त्य परं जगतीड्यतमम् परमात्परतः पुरुषोत्तमतः तदलं बहुलोकविचिन्तनया प्रवणं कुरु मानसमीशपदे यततोऽपि हरेः पदसंस्मरणे सकलं ह्यघमाशुलयं व्रजति स्मरतस्तु विमुक्तिपदं परमम् स्फुटमेष्यति तत्किमपाक्रियते शृणुतामलसत्यवचः परमम् शपथेरितमुच्छ्रितबाहुयुगम् न हरेः परमो न हरेः सदृशः परमः स तु सर्वचिदात्मगणात् यदि नाम परो न भवेत् स हरिः कथमस्य वशे जगदेतदभूत् यदि नाम न तस्य वशे सकलम् कथमेव तु नित्यसुखं न भवेत् न च कर्म विमामलकालगुणप्रभृतेशमचित्तनु तद्धियतः चिदचित्तनु सर्वमसौ तु हरिः यमयेदिति वैदिकमस्ति वचः व्यवहारभिदापि गुरोर्जगताम् न तु चित्तगता स हि चोद्यपरम् बहवः पुरुषाः पुरुषः प्रवरो हरिरित्यवदत्स्वयमेव हरिः चतुरानन पूर्वविमुक्तगणाः हरिमेत्य तु पूर्ववदेव सदा नियतोच्च विनीचतयैव निजाम् स्थितिमापुरिति स्म परं वचनम् आनन्दतीर्थसन्नाम्ना पूर्णप्रज्ञाभिधायुजा कृतं हर्यष्टकं भक्त्या पठतः प्रीयते हरिः इति द्वादशस्तोत्रे तृतीयोऽध्यायः।